चित्रं षड्विंशतिः। इदं चित्रेषु पश्येतु एकः व्यक्तिः, अन्यतमा अदं प्रभु ईशस्य विश्वासं मा करोति, तेषु अन्धकारेषु प्रयाणं भवति च युष्मान् सदाकालं तेषु पदति च रुवन्ति स्मान् किमेवं तेषु मा ज्योतेषु तस्यस्य इदं विधानेषु सेषु ध्यानपूर्वेण त्वं प्रयाणमासीत्। त्वमेवं त्वं युष्मान् प्रभूयुषिष्येषु विश्वासं करोति च तस्य पन्थेषु गच्छयन्ति स्म। तत् समयेन युष्मान् तत् मानवरूपेण निर्मितवान्। केन? तत् प्रकाशेन गच्छयति सा विज्ञानयन्तं, केन? तत्र तत्र पाषाणखण्डं सन्ति। केन? तत्रस्य वदा आस्मिन् तेषु अस्मिन् कार्येषु रक्षत एसि। ईशस्य वदा अहमेव विश्वस्य तेजः। तू च इदं विधाना मनुष्याणाम् अहम् अनुसरेण तेषु मा गच्छयति अन्धकारेषु। जो तत् पवित्रात्मा सर्वविश्वासानां ददन्ति च सत्यमार्गेषु प्रगच्छयति।